उत्तानपादनृपदेर्मनुनन्दनस्य जहया बभूव सुरुचि नितरामभीष्टः अन्या सुनीतिरिति भर्तृरनादृता सा त्वामेव नित्यमगति शरणौ गताभूत् अङ्के पितुः सुरुचि पुत्रकमुत्तमम् तम् दृष्ट्वा ध्रुवः किल सुनीति सुतोधिरोक्ष्यन् आचिक्षिपे किल शिशुः सुतराम् सुरुच्य दुःसङ्क्यजा खलु भवत् विमुखैरसूया त्वन्मोचिते पितरि पश्यति दारवश्ये दूरम् दुरुक्ति निहतः स गतो निजाम्बाम् सापि स्वकर्म गति सन्तरणाय पुंसाम् त्वत्पादमेव शरणम् शिशवे शशंस आकर्ण्य सोऽपि भवदच्चन निश्चितात्मा मानी निरेत्य नगरात् किल पञ्चवर्षः सन्दृष्ट नारद निवेदित मन्त्र मार्गस्त्वामार राध तपसा मधुकाननान्ते काते विषण्ण हृदये नगरीम् गतेन श्रीनारदेन परिशान्तित चित्तवृत्तौ बालस्त्वदर्पित मनाक्रम वर्धितेन निन्ये कठोर तपसा किल पञ्चमासान् तावत्तपो बल निरुच्छ्वसिते दिगन्ते देवार्तितस्त्वमुदयत् करुणार्द्रचेतः त्वद्रूपचिद्रसनीनमते पुरस्तात् आविर्बभूवित विभो गरुडानिरूढः त्वद्दर्शन प्रमद भारत रङ्गितौ तौ देव्या निमग्नमिव रूप रसायनेते तुष्टूषमहणमवगम्य कपोल देशे संसृष्टवानशिधरेण तथा धरेण तावद्विबोध विमल हनुमन्तमेनम् आभाषतास्त्वमवगम्य तदीय भावम् राज्यम् चिरौ समनुभूय भजस्व भूयः सर्वोत्तरम् ध्रुवपदौ विनिवृत्तिहीनम् इत्युचुषि त्वयि गते कृपनन्दनोऽसौ आनन्दिता किल जनो नगरीमुपेतः देमे चिरम् भवदनुग्रह पूर्णकामस्ताते गते च वनमादृत राजभारः यक्षेन देव निहते पुनरुत्तमेऽस्मि यक्षैः स युद्ध निरतो विरतो मनोप्या शान्त्या प्रसन्न हृदयार्दन दादुपेतात् त्वद्भक्तिमेव सुदृढम् अवृणोन्महात्मा अन्ते भवत्पुरुषनीत विमानयातो माता समम् ध्रुवपदे मुदितो यमास्ते एवम् स्वभृत्य जनपालन लोलधीस्त्वम् पातालयादिपनिरुन्धि ममामयोग